षोडश मंत्र का शांकर भाष्य। हे पूषण, जगतः पोषणात् पूषा रविस्तथैक एव ऋषति गच्छति इत्येकर्षिः। हे एकर्षे, तथा सर्वस्य संयमनाद्यम्। हे यम, तथा रश्मीनां प्राणानां रसानांच स्वीकरणात् सूर्यः। हे सूर्य, प्रजापतेरपत्यं प्रजापत्यः। हे प्रजापत्य, व्यूह विगमय रश्मिन्स्वान समूह एकीकुरु उपसंहरे ते तेजस्तापकं ज्योतिः। यत्ते तव रूपं कल्याणतमं अत्यन्तशोभनं तत्ते तवात्मनः प्रसादात् पश्यामि। किञ्चाहं न तु त्वां भृत्यद्याचे यो असावादित्यमण्डलस्थो व्याहृत्यवयवः पुरुषः। पुरुषाकारत्वापूर्ण वानेन प्राणबुद्ध्यात्मनो जगत्समस्तीति पुरुषः। पुरि शयनाद्वा पुरुषः सो अहम् अस्मि भवामि।